इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। लोकसभा निर्वाचनस्य शेषचरणेभ्यः प्रचारः जवीयेन विधीयते। राजनीतिक दलानां प्रमुख नेतारः देशस्य विभिन्न भागेषु जनसभाः कुर्वन्ति। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अवोचत् यत् भारतं सर्वाः आवश्यक राष्ट्रिय क्षमताः विकसितुं प्रयासं करिष्यति। संयुक्तारब अमीरातेन पर्यावरण संरक्षणाय स्थिरता प्रयासे महत्वपूर्ण योगदानाय दीर्घकालं यावत् देशे निवस्तुं नूतन पारगमनानुमति कार्यक्रमस्य घोषणा कृता। ऋतुविज्ञान विभागेन आगामि मंगलवासरं यावत् राजस्थान पंजाब हरियाणा दिल्ली चेति राज्येष् कतिपय क्षेत्रेष् प्रबल आतपस्थितिः अनुमानः प्रकटितः। अपि च टेबल टेनिस क्रीडायां भारतस्य पोयमंती बैस्य इत्येषा अद्य सायं तुर्कीये इत्यत्र डब्ल्यूटीटी केप्पा दियोसुदिया फीडर इति स्पर्धामालिकायां मिश्रित युगलवर्गे महिला युगलवर्गे च निर्णायक चक्रे क्रीडिष्यति। अथ वार्ताः विस्तरेण। लोकसभा निर्वाचनस्य शेषचरणेभ्यः प्रचारः जवेन विधीयते। राजनीतिक दलानां प्रमुख नेतारः देशस्य विविधभागेष् जनसभाः कुर्वन्ति। प्रधानमन्त्री भाजपादलस्य वरिष्ठो नेता नरेन्द्रमोदी अद्य उत्तरप्रदेशस्य बाराबंकी जनपदे एकस्यां जनसभायां तृणमूल कांग्रेस समाजवादी पार्टी चेत्यनयोः संयुक्तौ अधिक्षिपत्। उक्तं च यत् सपादलेन इदानीं बंगाले शरणम् अवाप्तम्। एतयोः राजनीतिक संयुतिः केवलं मतप्राप्तये तुष्टीकरणाय च वर्तते। समाजवादी पार्टीति दलप्रमुखः अखिलेशयादवः कांग्रेसदलस्य पूर्व अध्यक्षः राहुलगांधी च संयुक्तरूपेण अमेठीनगरे प्रचारं कुरुतः। अमेठी लोकसभासने स्मृति ईरानीं विरुध्य कांग्रेसदलस्य किशोरीलाल शर्मा प्रत्याशित्वेन विद्यते। विदेशमन्त्री डॉ सुब्रह्मण्यम जयशंकरः अवोचत् यत् भारतं सर्वाः आवश्यक राष्ट्रिय क्षमताः विकसितं करिष्यति, येन आगामिने समये भारतेन नेतृत्वं कर्तुं शक्ष्यते। नवदिल्ल्यां व्यापारिक संघटनैः आयोजिते एकस्मिन् सम्मेलने श्रीजयशंकरः अवदत् यत् व्यापारानुकूल वातावरणेन समं अस्माभिः योग्यता प्रतिस्पर्धात्मक स्थितयः च विकसितुं ध्यानाकेन्द्रितं कर्तव्यम्। अमुना प्रतिपादितं यत् भारते सशक्त विकासः, शासनव्यवस्थायां परिष्कारः, वित्तीयम् अनुशासनम्, आधारभूत संरचना अथ च जवेन समेधमानम् आंकिकीकरणं च द्रष्टुं शक्यते। तेन जगति एधमानायाम् अस्थिरतायां चिन्ता प्रकटिता। सहैव विदेशमन्त्रिणा विश्वस्य स्थिरतायां भारतस्य योगदानम् अपि प्रतिपादितम्। उक्तं च यत् वसुधैव कुटुम्बकम् इति भावना भारतं विश्वबन्धुत्वरूपेण अभिज्ञानं प्रददाति। संयुक्तारब अमीरातेन अष्टत्रिंशत् लक्षाधिकेभ्यः भारतीयेभ्यः पर्यावरण संरक्षणाय स्थिरता प्रयासे महत्वपूर्ण योगदानाय च दीर्घकालं यावत् देशे निवस्तुं नूतन पारगमनानुमति कार्यक्रमस्य घोषणा कृता। दशवर्षेभ्यः निवासाय ब्लू रेजिडेंसी वीजा इति कार्यक्रमस्य उद्देश्यं पर्यावरण सम्बद्धानुसन्धाने सक्रियतायां प्रौद्योगिकीय समाधाने च वैश्विक नेतृणाम् आकर्षणं वर्तते। अयं वीजा इति कार्यक्रमः जगति संरक्षणपराणां जनानां स्वागतं विदधाति। भारतीय ऋतुविज्ञान विभागेन आगामि मंगलवासरं यावत् राजस्थान पंजाब हरियाणा दिल्ली चेति राज्येष् कतिपय क्षेत्रेष् प्रबल आतपस्थितेः अनुमानः प्रकटितः। सममेव विभागेन उक्तं यत् देशस्य पूर्व मध्य भागेष् अपि श्वः आरभ्य एतादृशैव स्थितिः भविष्यति। ऋतुविज्ञान विभागेन अनुमितं यत् अस्य मासस्य त्रयोविंशतिः दिनांकं यावत् देशस्य दक्षिणभागेष् कुत्रचित् तीव्रवर्षायाः सम्भावना विद्यते। अपि च ऋतुविज्ञान विभागेन मंगलवासरं यावत् तमिलनाडु पुदुच्चेरी कराईकल केरल माहे तटीयांध्र प्रदेश रायलसीमा कर्नाटके च केषुचित् स्थलेषु प्रबलवृष्टेः संभावना प्रकटिता। अपरत्र पूर्वोत्तर भारतस्य अरुणाचल सिक्किम असम नागालैंड मणिपुर मेघालय राज्येषु सोमवासरं यावत् कतिपय स्थलेषु प्रबलवृष्टेः संभावना प्रकटितास्ति। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रिय महिलायोगस्य अध्यक्षा रेखा शर्मा अद्य दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निजी सचिवद्वारा राज्यसभा सदस्यायाः स्वाती मालीवालेन सह जातस्य कथित दुर्व्यवहारस्य निन्दां कृतवती। नवदिल्ल्यां वार्ताहरन् सम्बोधयती श्रीमती रेखा शर्मा अवोचत् यत् अयं गभीरचिन्तायाः विषयः यत् दिल्ली महिलायोगस्य पूर्वप्रमुखा महिलाधिकारेभ्यः मुखरा च एतादृशं व्यवहारं सम्मुखीकरोति। अवधेयं यत् विषयेऽस्मिन् दिल्ली आरक्षिबलेन ह्यः प्राथमिकी पञ्जीकृता। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन् प्रावोचत् यत् भारतं सप्तचत्वारिंशदुत्तर द्विसहस्र वर्षं यावत् विकसितं राष्ट्रं विधातुं प्रशासनेतर क्षेत्राणां महत्वपूर्णा भूमिका भविष्यति। नवदिल्ल्यां व्यापार संघटनद्वारा आयोजितस्य कार्यक्रमस्य अवसरे श्रीमती सीतारमन देशविकासस्य आवश्यकता विषये सविशेषं बलं प्रदत्तवती। विभिन्नायाम् आर्थिकानां पूर्वाकलनम् उद्धरणं प्रयच्छन्ती असौ विश्वासं प्राकटयत् यत् आगामि पञ्चवर्षेष् भारतस्य वैश्विक विकासे प्रतिशतम् अष्टादशमितस्य योगदानं भविष्यति। भारतस्य विनिर्माण क्षमतायाः सहयोगस्य च क्षेत्रे सामर्थ्य संवर्धने बलं प्रयच्छन्त्या वित्तमन्त्रिणा प्रोदितं यत् आगामि वर्षेष् जवीवस्य गत्या प्रवर्धमाना एषा अर्थव्यवस्था अतोऽपि तीव्रगत्या अग्रे वर्धिष्यते। श्रीमती सीतारामन् प्रावोचत् यत् एतत् सर्वं देशस्य विकासनीतीनां स्थिरतायाः कारणेन सम्भवो जायते। हरितार्थव्यवस्था विषये अमुना सबलं प्रोक्तं यत् हरितोर्जसां विकासः अस्माकं महत्वपूर्णम् उत्तरदायित्वम् अस्ति। भारत मंगोलिया देशयोः रक्षामन्त्रालयोः मध्ये द्वादशं संयुक्त कार्यकारी समूहोपवेशनम् अद्य सम्पन्नम्। मंगोलियायाः उलान बतार नगरे सम्पन्ने द्विदिवसीय उपवेशने परस्परं रक्षासहयोगस्य चर्चा सञ्जाता। उपवेशनस्य अध्यक्षता रक्षामन्त्रालयस्य संयुक्त सचिवः अमिताभ प्रसादः मंगोलियायाः ब्रिगेडियर जनरल खान गानखुया दावा गर्दोसः च संयुक्तरूपेण कृतवन्तौ। टेबल टेनिस क्रीडायां भारतस्य पोयमंती बैस्य इत्येषा अद्य सायं तुर्कीये इत्यत्र डब्ल्यूटीए केप्पादोसिरा फीडर इति स्पर्धा मालिकायां मिश्रित युगलवर्गे महिला युगलवर्गे च निर्णायक चक्रे क्रीडिष्यति। मिश्रित युगलवर्गे भारतस्य पोयमंती आकाशपालः च अनिर्वाण घोष स्वास्तिका घोष इत्यनयोः युगलेन सह क्रीडिष्यतः। महिलायुगलवर्गे च भारत जापानयोः स्पर्धा भविष्यति। बैडमिंटन क्रीडायां भारतीय क्रीडकाः अद्य थाईलैंडस्य बैंकॉक नगरे बैडमिंटन मुक्त प्रतिस्पर्धायाः प्रागुपान्त्य चक्रीय प्रतिस्पर्धायां योत्स्यन्ति। युगल पुरुषाणां डबल्स प्रागुपान्त्य चक्रीय प्रतिस्पर्धायाः निर्णायके द्वन्द्वे भारतस्य सात्विक साईराज रेंकी रेड्डी चिराग सेट्टी च मलेशिया देशस्य आरके याप इत्यनेन जे आरिफ इत्यमुना च साकं भविष्यति। अपरत्र च महिलानां युगलस्पर्धायां शीर्ष बैडमिंटन क्रीडिका तनिषा क्रोष्टो अश्विनी पोनप्पा च अद्य दक्षिण कोरिया देशीयया क्रीडकया वाइली इत्यनया एस सी श्विन इत्यनया च साकं सुतरां योत्स्यतः।